ॐ राहुर्दानवमन्त्री च सिंहिकाचित्त नन्दनः अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानु भीतिदः ग्रहराजसुधापायी राकातिध्य भिलाशुकः कालदृष्टिः कालरूपः श्रीकण्ठ हृदयाश्रयः विधुन्तुदः सैनिकेयो घोररूपो महाबलः गृहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः यः पटेन्महति पीडा तस्य नश्यति केवलं विरोग्यं पुत्रमतुलां श्रियं धान्यं पशुंस्तथा ददाति राहुः तस्मै यः पठति स्तोत्रमुत्तमं सततं पठति यस्तु जीवेत् वर्षशतं नरः।